एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः। सर्वकारेण चक्रवृद्धि धनेन पीडितानां जनानां समस्यानां समाधानाय अनुसन्धानायोग संगठितो वर्तते। सिंहप्रासादस्थिते प्रधानमन्त्री मन्त्रिपरिषदः कार्यालये गतदिने उपविष्टेन मन्त्रिपरिषदः उपवेशेन चक्रवृद्धि धनेन पीडितानां जनानां समस्यानां विषये अनुसन्धानाय पूर्व न्यायाधीशस्य गौरी बहादुर कार्किणः नेतृत्वे आयोगं संघटयितुं निर्णीतमिति संचार सूचना प्रविधि मन्त्री रेखा शर्मा अज्ञापयत्। गत शनिवासरे गृह मन्त्रालय सर्वकारस्य आन्दोलनरताया चक्रवृद्धि धन पीड़ित संघर्ष समितेश्च मध्ये धृतायां पंचसूत्रीय सहमतौ चक्रवृद्धि धनेन पीड़ितानां जनानां समस्यानां समाधानाय सर्वकारेण आयोगं संघटयितुं सहमतिर्धृतासीत्। मन्त्रिपरिषदः गतदिवसीयोपवेशेन गृह मन्त्रालयस्य अन्तर्गते शान्ति सुरक्षा सम्बद्ध कार्ये विहितेन व्ययेन सम्बद्धं कार्यविधिं निरस्तीकर्तुं च निर्णीतम् वर्तते। आगामिनो वैशाख मासस्य दशमे दिवसे रविवासरे सम्पत्स्यमानाय प्रतिनिधिसभाया सदस्यस्य उपनिर्वाचनाय निर्धारितस्य कार्यक्रमस्य अनुसारेण ह्यः प्रत्याशिनां मनोनयनपत्रस्य पंजीकरणस्य कार्यक्रमः त्रिषु एव निर्वाचन क्षेत्रेषु शान्ति पूर्ण रूपेण सम्पन्नोऽस्ति। चितवन जनपदस्य द्वितीय निर्वाचन क्षेत्रे, तनहु जनपदस्य प्रथम निर्वाचन क्षेत्रे, बारा जनपदस्य द्वितीय निर्वाचन क्षेत्रे च सम्पत्स्यमानाय उपनिर्वाचनाय सम्बद्ध निर्वाचन क्षेत्रेषु अस्यैव चैत्रस्य अष्टादशे दिवसे स्थापितेषु मुख्य निर्वाचनाधिकृतानां कार्यालयेषु ह्यः पूर्वाह्नस्य दशवादनात् सायं पञ्चवादनं यावत् प्रत्याशिनां मनोनयन पत्रस्य पंजीकरणं विहितमिति निर्वाचनायोगेन ज्ञापितं वर्तते। आयोगस्य सहायक प्रवक्तुः सूर्यप्रसाद अर्यालस्य अनुसारेण चितवन जनपदस्य द्वितीय निर्वाचन क्षेत्रे चतुर्विंशत्या, तनहु प्रथम निर्वाचन क्षेत्रे नवभिः, बारा द्वितीय निर्वाचन क्षेत्रे षड्विंशत्या च जनैः प्रत्याशितायै मनोनयन पत्रस्य पंजीकरणं कारितमस्ति। पंजीकारित मनोनयन पत्रेषु जनेषु त्रयस्त्रिंशत् दलानां पक्षतः षट्त्रिंशद स्वतन्त्राश्चेति कृत्वा समग्रतः ऊनसप्ततिर्जनाः प्रत्याशिनो वर्तन्ते। निर्वाचन आयोगेन आगामिनो वैशाख मासस्य दशमे दिवसे सम्पत्स्यमानाय प्रतिनिधिसभाया सदस्यस्य उपनिर्वाचनाय पर्यवेक्षणेच्छुकाभ्यः राष्ट्रिय संस्थाभ्यः अनुमतये निवेदनम् अभियाचितं वर्तते। आयोगेन ह्य सूचनां प्रकाश्य पर्यवेक्षणेच्छुकाः राष्ट्रिय संस्थाः आवश्यक पत्राणि समावेश्य निवेदनं दातुम् अनुरुद्धाः सन्ति। प्रधानमन्त्रिणः पुष्पकमल दाहाल प्रचण्डस्य नेतृत्वस्य सर्वकारेण शतदिनानाम् अवधौ विहितानि कार्याणि अधिगताः उपलब्धयश्च सार्वजनीकृताः सन्ति। प्रधानमन्त्रिणः प्रचण्डस्य नेतृत्वस्य सर्वकारेण विहितानि सप्तत्रिंशत् महत्वपूर्णानि कार्याणि अधिगताः प्रमुखाः उपलब्धयश्च प्रधानमन्त्रिणः नैज सचिवालयेन विज्ञप्तेर्माध्यमेन ह्य सार्वजनीकृताः सन्ति। प्रचण्डस्य सर्वकारेण अधिगतासु सप्तत्रिंशति उपलब्धिषु सार्वजनिक सेवा प्रवाहस्य अतिरिक्त प्रभावकारितायाः, नागरिक मैत्रीपूर्णतायाश्च, भ्रष्टाचारस्य अनियमिततायाश्च, नियन्त्रणस्य, राज्यस्य सर्वेषु स्तरेषु संरचनासु च सुशासन सदाचारोत्तरदायित्व संस्थापनस्य च विषयेषु बलं प्रदीयमानमस्तीति उल्लिखितं वर्तते। सर्वकारस्य उपलब्धिषु अर्थतन्त्र सुधारस्य प्रयासस्य अन्तर्गतं विभिन्नाः प्रयासाः विहिताः सन्तीति च उल्लिखितं वर्तते। रेडियो नेपालेन स्वस्य त्रिसप्ततितमः वार्षिकोत्सवः विभिन्नान् कार्यक्रमान् आयोज्य ह्यः समायोजितः। वार्षिकोत्सव समारोहं सिंहप्रासादे उद्घाटयन्ति संचार सूचना प्रविधि मन्त्री रेखा शर्मा रेडियो नेपालेन जनतायै सुसूचनेन सह मनोरञ्जनस्य प्रदानाय स्थापना कालादेव उल्लेख्य भूमिका निर्व्यूढास्थिति अवोचत। मन्त्री शर्मा परिवर्तितम् राजनीतिकं परिदृश्यं सूचना प्रविधौ विकसितं परिवर्तनञ्च आत्मसात्कृत्य जनतायाः सूचनायाः मनोरञ्जनस्य च अधिकारम् अतिरिक्तं संस्थापयितुम् आगामी दिनेष्वपि रेडियो नेपालस्य भूमिका महत्वपूर्णा भविष्यतीति च विश्वासं व्यक्तवती। कार्यक्रमे संचार सूचना प्रविधि मन्त्रालयस्य सचिव रेडियो नेपाल संचालक समितेः अध्यक्षश्च कृष्ण बहादुर राउत जनतायां तथ्यपरकाः सूचनाः समाचारांश्च प्रापयितुं रेडियो नेपालस्य प्रयास प्रशंसायोग्योऽस्तीति उदैरयत। समारोहे रेडियो नेपालस्य कार्यकारी निर्देशक बुद्धिबहादुर केसी, रेडियो नेपाल नवीनतम प्रविधिन् उपयुज्य स्वस्य प्रसारणं देशस्य प्रतिशतं द्वानवत्यां भूभागेषु प्रापयितुं सफल समृद्धोऽस्तीति समसूचयत। नायब कार्यकारी निर्देशक खगेन्द्र खत्री अगदत् सूत्रीणां प्रथम चयनं सम्पादयितुं प्रसारणे समयानुकूल सुधाराय रेडियो नेपाल प्रतिबद्धो भूत्वा प्रवर्तते। समारोहे रेडियो नेपालेन प्रतिवर्षं प्रदीयमानेन सृष्टि सम्मानेन अस्मिन् वर्षे वरिष्ठ गीतकारः गायकः संगीतकारश्च माधव श्रेष्ठ मोइते, वरिष्ठ प्रसारकः धना लामा च एकाधिकैक पञ्चाशता सहस्रैः रूप्यकैः सह सोत्तरीयं प्रमाणपत्रेण च सम्मानिते स्तः। समारोहे रेडियो नेपालेन आयोजितायां राष्ट्रव्यापिन्याम् आधुनिक गीत प्रतियोगितायां प्राप्त प्रथम द्वितीय तृतीय स्थानाः गायकाः गायिकाः उत्कृष्ट गीतकाराः संगीतकाराश्च सवित्तं सप्रमाणपत्रञ्च सम्मानिताः सन्ति। समारोहे रेडियो नेपाले पञ्चविंशतिं वर्षाणि वित्तसेवाभ्यः अष्टाविंशत्यै कर्मचारी दीर्घ सेवा पदकं प्रदत्तम् आसीत्। एवमेव समारोहे रेडियो नेपाले स्थित्वा उत्कृष्ट कार्य सम्पादकाः विभिन्न सेवायाः कर्मचारिणः सवित्तं सप्रमाणपत्रञ्च सम्मानिताः आसन्। वर्षेस्मिन् उत्कृष्ट कार्यालयस्य रूपेण धनकुटा प्रादेशिक प्रसारण कार्यालयः पुरस्कृतो वर्तते। ह्यैव संचार सूचना प्रविधि मन्त्री रेखा शर्मा महिला पत्रकाराः सूचना प्रविधि मैत्रिण्यो विधेयाः इति विचारं व्यक्तवती। मन्त्री शर्मा संचारिका समूहेन काष्ठमण्डपे आयोजिते कार्यक्रमे नीति कार्यक्रमेषु आयव्यके चैव सहभागिनीः विधाय महिला पत्रकारान् सूचना प्रविधि मैत्रिणीः विधेयाः इति उदैरयत्। विधौ बाध्यकारिण्याः व्यवस्थायाः असम्पादनं यावत् महिलाभिः अवसरस्य प्राप्तेः अवस्था नास्तीति तर्कयन्ती मन्त्री शर्मा महिलायाः विकासो नाम समग्र मानवस्य विकासोऽस्तीति धारणाम् अभिव्यनक। स्वास्थ्य जनसंख्या मन्त्रालयेन नेपाले यामज काश प्रदेशाययोः कारणेन कोरोना विषाणो संक्रमणं वर्धमानम् अस्तीति ज्ञापितं वर्तते। मन्त्रालयस्य सहप्रवक्ता डा समीर कुमार अधिकारी ह्यो विज्ञप्तिं प्रकाश्य प्रतिवेशी राष्ट्रे कोरोना विषाणोः नवीनायाः ओमिक्रोन एक्सबीबी दशमलवैक षडुत्तरैक नाम ध्येयायाः प्रजातेः दर्शनात् नेपाले संक्रमणं वर्धमानम् अस्तीति अज्ञापयत्। सप्रवक्तुः अधिकारिणः अनुसारेण अस्मिन्नेव चैत्र मासे चतुर्विंशत्यां निदर्शनेषु परीक्षितेषु सत्सु तेषु सर्वेषु एव ओमिक्रोन प्रजातिः पुष्टिभूता वर्तते। ह्यः षड्सप्तत्यां जनेषु कोरोना विषाणोः संक्रमणं दृष्टमस्ति। सर्वकारेण शिलातैलीय पदार्थानां मूल्यं न्यूनीकृतं वर्तते। नेपाल तैल निगमेन डिजेल मृत्तिका तैल विमानेन्धनानां मूल्य प्रतिलिटरमितं 10 रूप्यकाणि, पेट्रोल तैलस्य मूल्य च प्रतिलिटरमितं 3 रूप्यकाणि च न्यूनीकर्तुं निर्णीतमिति ज्ञापितमस्ति। निगमेन ह्यो विज्ञप्तिं प्रकाश्य मूल्य न्यूनीकरणानन्तरं पेट्रोल तैलस्य विक्रयण मूल्यं प्रतिलिटरमितं 75.7 रूप्यकात्मकं, डीजल मृत्तिका तैलयोश्च मूल्यं प्रतिलिटरमितं 66.7 रूप्यकात्मकं च निर्धारितं वर्तते। एवमेव आन्तरपक्षे विमानेन्धनं प्रतिलिटरमितं 68.7 रूप्यकैः विक्रियते। भारतीय तैल निगमात् मूल्यं न्यूनीभूय आगतं तदनु ह्य उपविष्टेन निगम संचालक समितेः उपवेशेन इन्धनस्य मूल्यं न्यूनीकर्तुं निर्णीतमस्ति। मलेसिया देशे अनिवार्य मृत्युदण्डस्य व्यवस्था निरस्यते। मलेसिया देशीय संसदा देशस्य विधौ अनिवार्य मृत्युदण्डस्य व्यवस्थायाः निरसनस्य पक्षे मतदानानन्तरम् एवं निर्णयः सम्भूतो वर्तते। संसदा पार्टी कृतायाः व्यवस्थायाः क्रियान्वयनेन सहैव हत्यातंकवादसहितेषु एकादशसु गभीर प्रकृतिकेषु अपराधेषु प्रदीयमानम् अनिवार्य मृत्योः दण्डनम् निरस्यते। अनेन सहैव निर्धारित मृत्युदण्डनानां सहस्रस्य शतत्रयस्य च बन्दीजनानां जीवनस्य रक्षणं सम्भवतीति अनुमितं वर्तते।